एसा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति स्वदेशीय निवेशम् प्रोत्साहयितुम् वैदेशिक निवेशम् आकर्षयितुम् च विदेहे निर्माणम् विधीयमानम् वर्तते। प्रतिनिधि सभाया ह्यस्तनोपवेशे प्रधानमन्त्रिणा सह प्रश्नोत्तर कार्यक्रमे सांसदैः पृष्टान् प्रश्नान् उत्तरयन् प्रधानमन्त्री ओली नेपाले आयातस्य व्यवस्थापनाय निर्यातस्य प्रवर्धनाय च व्यापारहानिम् न्यूनीकर्तुम् विभिन्नैः नीतिगतैः विधिगतैश्च सुधारैश्च व्यवसायी मैत्रीर्विधिः निर्मितोऽस्तीति असूचयत्। प्रधानमन्त्री ओली कृषि उत्पादने वृद्धिम् विधाय आत्मनिर्भरताम् प्रति उन्मुखीकरणाय कृष्युत्पादन परियोजनाम् सपरिमार्जनम् अग्रे नेतुम् गृहकार्यम् विधीयमानम् अस्तीति अवोचत। प्रधानमन्त्री ओली मातृशिशोः स्वास्थ्यावस्थायाः सुधाराय सर्वकारेण संघस्य प्रदेशानाम् स्थानीयानाम् च सर्वकाराणाम् चिकित्सालयेभ्यः स्वास्थ्य संस्थाभ्यश्च विभिन्नाः कार्यक्रमाः सञ्चाल्यमानाः सन्तीति अगदत। प्रधानमन्त्री ओली सजनशीलताम् नवप्रवर्तनम् च प्रोत्साहयितुम् उद्यमशीलतायाः विकासाय निवेशकर्तृन् आकर्षयितुम् च सौविध्यपूर्ण ऋण प्रवाह कार्यक्रमे सहभागितायै इच्छुकानाम् प्रस्तावकानाम् चयनकार्यम् अन्तिमचरणे वर्तते इति अज्ञापयत्। प्रतिनिधि सभाया ह्यस्तनोपवेशे एतद् विक्रमवर्षीयम् आर्थिक कार्यविधि वित्तीयोत्तर दायित्व प्रथम संशोधन विधेयकम् आधृत्य प्रकरणगत विमर्शनार्थम् विहित प्रस्ताव बहुमतेन स्वीकृतोऽस्ति चेत् नैजीकरण सम्बद्धम् एतद् विक्रम वर्षीयम् प्रथम संशोधन विधेयकम् पारितीकृतम् च वर्तते। प्रधानमन्त्री केपी शर्मा ओली गदति स्थानीय सर्वकारैः वस्तुतः प्रतिग्रामम् सिंहप्रासादः प्रापितो वर्तते। नेपाल नगरपालिका संघस्य द्वात्रिंशत्तमम् वार्षिकोत्सवम् ह्य काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री ओली नेपाली जनतायाः दीर्घ संघर्षेण बलिदानेन च देशे राजतन्त्रम् समाप्य सुदृढ स्थानीय सर्वकाराः निर्मिताः सन्तीत्यतः वर्तमान व्यवस्थायाः विकल्पो नास्तीति समस्पष्टयत्। प्रधानमन्त्री ओली स्थानीय स्तरस्य समस्याः याचनाश्च उचित नीतिम् विधिम् च निर्माय समाधास्यन्ते। एतदर्थम् स्तरत्रयस्यैव सर्वकारेषु सहकार्यम् समन्वयश्च आवश्यके स्तः इति प्रत्यपादयत्। सर्वकारेण वीर चिकित्सालय त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालय भरतपुर चिकित्सालय च मस्तिष्क सम्बद्ध पक्षघात रोग ग्रस्तेभ्य रोगिभ्य निःशुल्कम् औषधम् प्रदास्यते। स्वास्थ्य जनसंख्या मन्त्रालयेन ह्य पत्रकार सम्मेलनम् विधाय अमेरिका देशीय दातृ संस्थाया डायरेक्ट रिलिक इत्यस्य सहयोगस्य नेपालस्य वन हट वर्ल्ड वाइड इति नाम्न्याः संस्थायाश्च सहजीकरणेन औषधम् प्राप्तमस्तीति ज्ञापितम् वर्तते। तदवसरे स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः आवश्यकतायाः अनुसारेण अन्येषु चिकित्सालयेषु अपि व्यवस्थेयम् विस्तारयिष्यते इति असूचयत्। मन्त्री पौडेलः अन्येषाम् रोगाणाम् कृतेऽपि महर्गोऽषध प्रदानार्थम् दातृसंस्थाः अनुरुद्धाः सन्तीति च अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन आगामिनः आर्थिक वर्षस्य आयव्ययकस्य निर्माणाय परामर्शनम् प्रदातुम् सार्वजनिक रूपेण अनुरोधः विहितोऽस्ति। आगामिनः आर्थिक वर्षस्य कृते आयव्ययकस्य निर्माणाय क्रियारतेन मन्त्रालयेन सम्बद्धाः सर्वे पक्षाः परामर्शनम् प्रदातुम् ह्यः सूचनायाः माध्यमेन अनुरुद्धाः वर्तन्ते। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः आयव्ययकस्य निर्माणाय सम्बद्ध सर्वेभ्यः पक्षेभ्यः परामर्शनानाम् संकलनाय सूचनायाः माध्यमेन सर्वान् अनुरुद्धवान् वर्तते। प्रधानमन्त्री केपी शर्मा ओली टर्की देशस्य राष्ट्रपतिम् रिसेप तैयप एर्दोगान इत्यमुम् दूरभाषम् विधाय हमास समूहेन नियन्त्रितस्य नेपाली छात्रस्य विपिन जोशिनः मुक्त्यर्थम् कूटनीतिक प्रयासम् कर्तुम् अनुरुद्धवान् वर्तते। प्रधानमन्त्री ओली ह्य टर्की देशस्य राष्ट्रपतिम् दूरभाषम् विदाय एवं अनुरुद्ध वानिति प्रधानमन्त्रिण सचिवालयेन ज्ञापितम् वर्तते। तदवसरे टर्की देशस्य राष्ट्रपतिः विषयममुम् गभीरतया स्वीकृत्य प्रयासो विधीयते इति उक्तवानिति प्रधानमन्त्रिण सचिवालयेन ज्ञापितम् अस्ति। दूरभाषस्य क्रमे अनयोर्मध्ये अर्थस्य विज्ञानस्य प्रविधेश्च क्षेत्रेष् सहकार्यस्य पारस्परिक सम्बन्धस्य च विषयेष् अपि विमृष्टमासीदिति ज्ञापितम् वर्तते। दूरभाषस्य क्रमे आगामिनि अप्रैल मासे टर्की देशे आयोक्ष्यमाणे कूटनीतिक सम्बद्धे सम्मेलने सहभागितायै प्रधानमन्त्रिणे ओलिने विहिताया निमन्त्रणाया विषयेऽपि राष्ट्रपतिना एर्दोगान इत्यनेन स्मारितम् आसीत्। एतत्पूर्वं प्रधानमन्त्रिणा ओलिना विपिन जोशिनः मुक्त्यर्थं प्रयासाय गत फाल्गुन मासस्य सप्तविंशे दिवसे इजिप्ट देशस्य राष्ट्रपतिना सह दूरभाषवार्ता विहिता आसीत्। गृहमन्त्री रमेश लेखका भाषते गताश्विन मासे जलविप्लवेभ्य प्रभावितानां जनानां कृते आवासस्य व्यवस्था विधास्यते। विपद संकट न्यूनीकरण व्यवस्थापन कार्यकारी समिते ह्यस्तनोपवेशस्य अनन्तरं संचारकर्मिभिः जलविप्लवेन भूस्खलनेन च सम्भूताया क्षतेः विश्लेषणं विधाय आवश्यकताया अनुसारेण स्थायीरूपेण अस्थायीरूपेण च आवासगृहाणि निर्मास्यन्ते इति गृहमन्त्री लेखकः असूचयत्। विषाक्तस्य क्षत्राकस्य भक्षणेन तनहु जनपदस्य म्याग्दी ग्रामपालिकाया षष्ठवडा क्षेत्रस्य एकस्य बालकस्य उपचारस्य क्रमे मृत्युः सम्भूतोऽस्ति। काष्ठमण्डपस्य शिक्षण चिकित्सालये उपचारस्य क्रमे चतुर्वर्षीयस्य सुमित पुलामी इत्यस्य मृत्युः सम्भूतोऽस्तीति प्रहरिणा ज्ञापितं वर्तते। एतत्पूर्वं गत सोमवासरे उपचारस्य क्रमे एतस्यैव वडा क्षेत्रस्य त्रिंशत् वर्षीयस्य नारायण मगर इत्यस्य च मृत्युः भूतः आसीत्। क्षेत्रे प्राप्तस्य क्षत्राकस्य सेवनेन 10 जनाः अस्वस्थाः सञ्जाताः आसन्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्प कमल दाहाल प्रचण्ड गदति राजतन्त्रस्य प्रत्यावर्तनस्य कथं विधापि सम्भावना नास्ति। माओवादी दलं जनतया स इति समाघोषेण संचालितस्य तराई मधेस जागरणाभियानस्य अन्तर्गतं बारा जनपदस्य कलैया स्थाने आयोजितायां सभायां पूर्वीय द्युः अध्यक्ष प्रचण्ड समृद्ध्योर मार्गे देश अग्रे वर्धितोऽस्ति इत्यतः पुनः प्राक्तन व्यवस्थायाम् एव प्रत्यावर्तनम् व्यवस्थामेव प्रत्यावर्तयिष्यामि इति कथनस्य कथंविदोऽपि अर्थो न भवतीति न्यस्तिनोत्। तदवसरे अध्यक्ष प्रचण्ड धार्मिक सांस्कृतिक पुरातात्विक महत्वस्य सिम्रोनगढ स्थानस्य रानीवास प्रासादं विश्वसम्पद सूच्यां सूचीकृतां कारयितुं प्रयास करिष्यते इति समाश्वासयत्।